तपसा कर्मणावा ज्ञान प्रसादेन शुद्ध सत्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः एषो नुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा सन्निवेश प्राणैश्चित्तं सर्वमूतं प्रजानां यस्मिन् विशुद्धे विभवत्येशयात्मा यमयमलोकं मनसा सन्निविभाति विशुद्ध सत्वः कामयते यांश्च कामान् तं तं लोकं जयते कांश्च कामान् तस्मात् आत्मज्ञं यर्चयेद् भूतिकामः
Privilege regained, a shadowless sight. The seeker entered the immortal's air and drank again his pure and mighty source.
चक्षुषा गूह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ज्ञानप्रसादेन शुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः एषो नुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा सन्निविवेश प्राणैश्चित्तं सर्वमूतं प्रजानां यस्मिन् विशुद्धे विभवत्येशयात्मा यमयमलोकं मनसा सन्निविभाति विशुद्ध सत्वः कामयते यांश्च कामान् तं तं लोकम्।